इङ्ग्लिष् भाषा एव अस्ति. चिन्तयतु, 200 इयर्स् पूर्वं गो बेक्, तदा इङ्ग्लिष् न आसीत्. तदा पान् इण्डियन् लेङ्ग्वेज् लिङ्क् लेङ्ग्वेज् किम् आसीत्? संस्कृतमेव आसीत्. पूर्वं संस्कृतभाषा व्यवहारभाषा रूपेण आसीत्. भाषा इति शब्दः अस्ति. भाषा, भाषाशब्दस्य अर्थः अस्ति. भाषा इति शब्दस्य अर्थः व्याकरणे तत्र भाषते इति क्रियापदरूपं, तस्य मूलधातुः रूट् भाष्लृ इति, भाष् इति स्वीकरोतु, भाष् इति मूलधातुः. भाष् इति धातु अर्थः अस्ति तत्र संस्कृते. व्यक्तायां वाचि इति वदति शास्त्रे, इत्युक्ते ध्वनिरूप वाक् इति अर्थः. भाष् इत्युक्ते वाक् इत्युक्ते लेङ्ग्वेज् एव, परन्तु एक एजेक्टिव् अस्ति, विशेषणम् अस्ति वाक् इत्यस्य. व्यक्तायाम् इति, व्यक्ता इत्युक्ते प्रकट ध्वनिरूप इति. स्क्रिप्ट् इति न लिखितभाषा इति न उक्तम्. भाषते इत्युक्ते ध्वनिरूपेण वदति इत्यर्थः, लिखति इति न भवति. सो प्रथमं भाषणं ध्वनिरूपेण, अनन्तरं स्क्रिप्ट् लिपिरूपेण. व्याकरणम् इति शब्दः अस्ति. व्याकरणम् इति शब्दस्य अर्थः ग्रामर् इति, तद् इङ्ग्लिष् ट्रान्स्लेशन्. परन्तु संस्कृते व्याकरण इति शब्दस्य अर्थः, प्रथमं शास्त्रवाक्यं वदामि, प्रयुक्तानाम् इदम् अन्वाख्यानम् इति. तस्य अर्थः यः भाषणरूपेण प्रयोगः कृतः, प्रथमं प्रयोगं करोति, यूस्, तस्य अन्वाख्यानम्. अन्वाख्यानम् इत्युक्ते तत्र कमेण्टरि इति भवति वा, कमेण्टरि इति. प्रयोगस्य यत् यूस् करोति, यूस्ड् लेङ्ग्वेज् यदस्ति तस्य डेफिनेशन् इत्यादि, तत् व्याकरणं भवति. सो प्रथमं ग्रामर् न, प्रथमं द लेङ्ग्वेज्, अनन्तरं व्याकरणम्. अतः प्राचीनकाले भाषारूपेण आसीत्. तत्र भिन्नभिन्नप्रदेशे भिन्नभिन्नशब्दप्रयोगः सर्वम् आसीत्. सर्वेषां भाषारूपेण आसीत्. सहजतया तत्र भाषा अभ्यासः सहजरूपेण, नेचुरल् रूपेण कथम् अभ्यासः भवति? मातृभाषा अभ्यासं वयं प्रथमं शृणुमः, अनन्तरं वदामः. सर्वभाषा अपि तथैव, श्रुत्वा श्रुत्वा उक्त्वा उक्त्वा भाषा अभ्यासः करणीयः. वयं सर्वे अत्र श्रवणद्वारा भाषणद्वारा संस्कृत अभ्यासं कुर्मः. तत्र संस्कृतं किमर्थम् इति अहं न वदामि, कारणं भवन्तः सर्वे जानन्ति, अतः एव अत्र आगतवन्तः, नो चेत् अत्र न आगच्छति. सर्वेषां संस्कृत अनुरागः अस्ति एव, अनुराग संस्कृतप्रीतिः अस्ति. परन्तु केवलं संस्कृतप्रीतिः न पर्याप्ता, संस्कृतविषये पूज्यभावना आदरभावना न पर्याप्ता, तस्य प्रयोगः आवश्यकः. एकम् उदाहरणं वदामि. महाभारतयुद्ध अनन्तरं श्रीकृष्णः गान्धारी समीपं गच्छति. गान्धारी धृतराष्ट्रस्य पत्नी, कौरवाणां माता. पुत्राः सर्वे मृताः, गान्धारी बहु दुःखिता, अतः सान्त्वनं करोमि, कन्सोल् करोमि इति श्रीकृष्णः गतवान् गान्धारी समीपे. गान्धारी सा बहु दुःखिता, कोपः अस्ति. यदि सा नेत्रयोः वस्त्रबन्धनं कृतवती, कोपेन यदि वस्त्रं उद्घाटयति जगत् सर्वं भस्म भवति, अतः कोपस्य शमनं शान्तिः करणीया। अतः श्रीकृष्णः प्रशंसां करोति, हे गान्धारी भवती अतिश्रेष्ठा पतिव्रता, बहु उत्तमा, भवत्याः बहु शक्तिः अस्ति इति नानाविध प्रशंसां करोति। भवती अत्यन्तं पूज्या, समग्र जगत् गान्धारी पूजां करोति इति उक्तवान्। तदा गान्धारी वदति, पूजा करोति तेन किम्, अहम् उत्तमः न, परन्तु भवान् एव सर्वेषां प्रियः अस्ति इति गान्धारी वदति। तदा श्रीकृष्णः वदति, तेन किम्, प्रियः अस्ति चेत् किम्, भवती पूज्या किल, अतः भवती एव उत्तमा इति। तदा गान्धारी वदति, न, पूज्या अस्ति चेत् न पर्याप्तम्, तद् उत्तमं न, यः प्रियः सः उत्तमः इति। कृष्णः पुनः पृच्छति, किमर्थम्? गान्धारी वदति, यदि पूजा अस्ति, यत्र आदरभावना अस्ति, पूजां करोति दूरतः, डिस्टेन्स् भवति, आदरः अस्ति चेत् समीपे न गच्छति, दूरतः नमस्कारं करोति, आदरभावना, श्रद्धा, अतः गौरवेण दूरतः नमस्कारं करोति। परन्तु यदि प्रीतिः भवति, आत्मीयता भवति, गत्वा आलिङ्गनं करोति, बहु समीपे समीपे स्वीकरोति, हृदये स्वीकरोति। अतः भवान् श्रीकृष्ण, भवान् तु सर्वेषां हृदये अस्ति, अहं दूरे अस्मि इति। संस्कृतभाषाविषये अपि तथैव, पूज्यभावना आदरभावना अस्ति चेत् प्रयोजनं नास्ति, ओ संस्कृतं बहुश्रेष्ठभाषा, वेदानां भाषा, धर्मस्य भाषा, भगवतः भाषा, बहु पूज्यभावना, दूरतः पूजां करोति, आरतिं करोति, न, पूजा न आवश्यकी, संस्कृतप्रीतिः आवश्यकी, आत्मीयता आवश्यकी, तदा समीपे स्वीकरोति, प्रयोगं करोति। अतः संस्कृतस्य पूजा न, प्रयोगः आवश्यकः। बहुषु गृहेषु जनाः पूजागृहे भगवद्गीतां स्थापयति, वेदग्रन्थं स्थापयति, पूजां करोति, अथवा केषुचित् गृहेषु नवरात्रसमये शारदा उत्सवः भवति, सरस्वतीपूजादिने संस्कृतग्रन्थं स्थापयित्वा पूजां करोति। संस्कृतस्य पूजा न आवश्यकी, संस्कृतस्य प्रयोगः आवश्यकः। संस्कृतप्रयोगं कुर्मः तेन, किमर्थं प्रयोगं कुर्मः? स्वविकासाय, स्वज्ञानविकासाय। सर्वः अपि मानवः, सर्वः अपि जीवने बहु परिश्रमं करोति, प्रयत्नं करोति, किं निमित्तम्? उद्देशः कः? सर्वस्य उद्देशत्रयम्। प्रथम उद्देशः ज्ञानम्, नालेज्। द्वितीयं समृद्धिः, सम्पत्, प्रास्पेरिटि। तृतीयम् आनन्दः, हेपिनेस्। पश्यतु, एतत् त्रयं विहाय अन्य अपेक्षा नास्ति, अस्ति वा? ज्ञानं, समृद्धि, अनन्तरं सन्तोष, त्रयमस्ति चेत् जीवनं समाप्तं। सर्वः अपि तत्र त्रयमेव, एतत् त्रयं प्राप्तुं प्रयत्नं करोति। तत् त्रयं प्राप्तुम् अपि संस्कृतम् उत्तमं साधनम्। केवलं संस्कृतेन इति अहं न वदामि, अन्यमाध्यमेन अपि शक्यं, परन्तु संस्कृतम् अत्युत्तमं साधनम्। अन्यत् भवन्तः कदाचित् इण्टर्नेट् मध्ये दृष्टवन्तः, संस्कृत एण्ड् ब्रेन् फङ्क्षन् इति विषये भवन्तः वार्तां पठितवन्तः। वदामि, हालेण्ड् देशे एकः प्रयोगः अभवत् 2 years back। प्रयोगः एतादृशः यत् भाषा तथा ब्रेन् फङ्क्षन् सम्बन्धः अस्ति वा, ब्रेन् सेल्स् तस्य उपयोग इत्यादि विषये अध्ययनम्। वैद्याः तत्र यथा हृदयस्य ECG परीक्षा भवति, मस्तिष्कस्य ईईजी इति परीक्षा भवति. भिन्न भिन्न भाषा भाषण समये अथवा श्रवण समये मस्तिष्कस्य ईईजी परीक्षां कुर्वन्ति. तो फ्रेंच भाषा, स्पैनिश भाषा, जर्मन भाषा, फ्रेंच, स्पैनिश, इंग्लिश भाषा त्रयम् यदा श्रुणोति तदा जनस्य मस्तिष्कस्य ईईजी सर्वं रेकॉर्डिंग कृतवन्तः. सो फ्रेंच भाषा पठन समये पुस्तकं स्वीकृत्य फ्रेंच पठति तथा ईईजी स्वीकृतवन्तः. जर्मन भाषा श्रुणोति अथवा पठति अथवा भाषणं करोति तदा ईईजी सर्वं डॉक्यूमेंटेशन अभवत्. तदनन्तरं फर्स्ट स्टेज मध्ये दश जनानां एक्सपेरिमेंट कृतवन्तः. तदनन्तरं दश जनानां ट्रांसेंडेंटल मेडिटेशन पाठं कृतवन्तः. ट्रांसेंडेंटल मेडिटेशन समये ईईजी स्वीकृतवन्तः. द्वयोः मध्ये भेदः अस्ति. टीएम समये, मेडिटेशन समये मस्तिष्कं बहु शांतं भवति. अन्य समये मस्तिष्कस्य तत्र तरंगः, ईईजी ग्राफ बहु उपरियदः उपरियदः भवति. तदनन्तरं तृतीय प्रयोगं कृतवन्तः. संस्कृतं श्रुणोति, मंत्र मंत्रान् श्रुणोति अथवा अन्यत् किमपि टेक्स्ट श्रुणोति तथा ईईजी स्वीकृतवन्तः. दोस हु आर एबल टू रीड पठितुम् उक्तवन्तः संस्कृतं. तस्य रोमन स्क्रिप्ट मध्ये लिखित्वा अभ्यासं कारयित्वा पठनं कृतवन्तः तथा ईईजी स्वीकृतवन्तः. आश्चर्यस्य परिणामः रिजल्ट आसीत्. संस्कृत श्रवण समये, संस्कृत पठन समये अथवा संस्कृत वाक्यानां रिपिटिशन समये यत् ईईजी आसीत् तत् ट्रांसेंडेंटल मेडिटेशन ईईजी समानम् आसीत्. एतत् इंटरनेशनल जर्नल ऑफ न्यूरोसाइंस पत्रिकायां एतत् 2004 मध्ये प्रकाशितमस्ति एषः परिणामः. तर्हि तत्र तस्मिन्नेव लेखने अन्ते लिखितं एडवांटेज एतदस्ति. वेल ट्रांस टीएम करणीयं चेत् उपविश्य किञ्चिदेक पोजिशन मध्ये स्थिररूपेण तत् करणीयं, मेडिटेशन करणीयं. अत्र चलन चलन अन्य कार्यं कुर्वन् संस्कृतं शृण्वन् भवान् टीएम बेनिफिट प्राप्तुं शक्नोति इति लेखने लिखितम् अस्ति. एत वयं जानीमः संस्कृतभाषा देवभाषा अथवा बहुश्रेष्ठ भाषा. संस्कृत मन्त्राणाम् उच्चारणेन शरीरे परिणामः भवति. अस्माकं पूर्वजाः उक्तवन्तः. इदानीं साइंटिफिकली प्रूव्ड अस्ति. तस्य परिणामः समग्र मस्तिष्के शरीरे अपि भवति. तथा च संस्कृतभाषा, इदानीम् अहं सियाटल नगरे आसम्. एकः प्रश्नं पृष्टवान्, एका माता प्रश्नं पृष्टवती, यदि कोऽपि संस्कृतं न जानाति तर्हि वाट् वुड् हि मिस् इति पृष्टवती. यदि संस्कृतं न जानाति किं नष्टं भवति इति. यदि तद् मिस् करोति, यदि अस्ति तर्हि एव मिस् करोति, यदि नास्ति तर्हि मिस्सिङ्ग् इत्यस्य अनुभवः एव न भवति. यदि अनुभवः करणीयः किमिति एकं लघु उदाहरणं वदामि. लघु लघु उदाहरणम्. इदानीं वयं वेदम भोजनपूर्वं ह्यः रात्रौ उक्तवन्तः ब्रह्मार्पणं ब्रह्महविः इत्यादि. सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ओम शांति 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 इति मन्त्रं वदति. मन्त्रश्रवण समये एक भावना भवति. यदि तदेव आंग्लभाषायां वदति इति चिन्तयतु. लेट अस प्रोटेक्ट टुगेदर, लेट अस ईट टुगेदर इति एवं किमपि वदति चेत् कोऽपि परिणामः भवति वा? कोऽपि तस्य इम्पैक्ट एव. एकं लघु उदाहरणम् अहम् उक्तवान्. भाषायाः भावनायाः च सम्बन्धः अस्ति. सा भावना एकदिने निर्मिता न, सहस्र सहस्र वर्षतः परम्परारूपेण आगच्छति. ಇಮೋಷನಲ್ ಸ್ಪಿರಿಚುವಲ್ ಭಿನ್ನ ಭಿನ್ನ ಆಧ್ಯಾತ್ಮಿಕ ಭಾವನಾತ್ಮಕ ಆತ್ಮಿಕ ಪ್ರಾಣಿಕ ವಿಕಾಸಾರ್ಥಂ ಏವಂ ಸಂಸ್ಕೃತ ಭಾಷಾ ಅವಶ್ಯಕಿ. ಸಂಸ್ಕೃತ ಭಾಷಾ ಮಾಧ್ಯಮೇನ ವಯಂ ಸರ್ವೇ ವಿಕಾಸಂ ಪ್ರಾಪ್ನುಮಃ ಇತಿ ಏತಾವದೇವ ಅಹಂ ಇದಾನಿಂ ನಿವೇದನಂ ಕೃತ್ವಾ ಸಮಾಪ್ತಿಂ ಕರೋಮಿ.